पार्वत्याः पदमत्र दृश्यमिति वा पादे भवत्वेन वा साधुत्वात् तदुपास्तये हिततया भक्त्यान्यमुनिस्फुटम् शैषा मुक्तिभुरी गिरीन्द्रतनया भक्तेन नारायणे नाभत्ता खलु शब्ददिर्दिशतु वः कल्याणहल्लोहलम्।